गीता साधक संजीवनी 17वां अध्याय श्लोक 1 से 10 तक।
वसुदेव सुतं देवं कंसचारुरमार्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरु।
ओम श्री परमात्मने नमः। अथ सप्तदशोऽध्याय। अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यदन्ते श्रद्धयान्विताः येषां निष्ठा तु का कृष्ण सत्यमाहोरजस्तमा। श्री भगवान उवाच त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा सात्विकी राजसी चैव तामसी चेति तांशनु सत्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामयोऽयं पुरुषो यो यश्रद्धः स एव स यजन्ते सात्विका देवान् यक्षरक्षांसि राजसा त्रेतान् भूतगणास्तान्ये यजन्ति तामसा जनाः अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः दम्भाहङ्कार संयोक्ता कामरागबलान्विता कर्षयन्तः शरीरस्थं भूतग्राममचेतस मां चैवान्तः शरीरस्थं तान् विद्यासुरनिश्चयान् आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रिय यज्ञस्तपस्तथा दानं तेषां वेदमिमं शृणु आयुः सत्त्वबलारोग्य सुखप्रीतिविवर्धना रस्याः स्निग्धा स्थिराधिज्ञा आहारा सात्विकप्रिया कात्वाम्ललवणात्योष्ण तीक्ष्णरुक्षविदायिन आहाराराजसश्रेष्ठा दुःखशोकामयप्रदा यातयामं गतरसं कूपिपयुषितं च यत् उच्छ्रेष्ठमपि चाभिध्यम् भोजनं तामसप्रियं यातयामं गतरसं कूपिपयुषितं च यत् उच्छ्रेष्ठमपि चाभिध्यं भोजनं तामसप्रियम्।
वसुदेव सुतं देवं कंसचारुरमार्दनं